अच्युताष्टकम्। अच्युतं केशवं रामनारायणं कृष्णदामोदरं वासुदेवं हरिं श्रीधरं माधवं गोपिकावल्लभं जानकीनायकं रामचन्द्रं भजे। अच्युतं केशवं सत्यभामाधवं माधवं श्रीधरं राधिकाराधितम् इन्दिरामन्दिरं चेतसा सुन्दरं देवकीनन्दनं नन्दजं सन्दधे। विष्णवे जिष्णवे शङ्खिणे चक्रिणे रुक्मिणी रागिणे जानकी जानये वल्लवी वल्लभायार्चितायात्मने कंसविध्वंसिने वंशिने ते नमः। कृष्णगोविन्द हे रामनारायण श्रीपते वासुदेवाजित श्रीनिधे। अच्युतानन्द हे माधवाधोक्षज द्वारकानायक द्रौपदी रक्षक राक्षसक्षोभितः सीतया शोभितः दण्डकारण्यभूपुण्यताकारणः लक्ष्मणेनान्वितो वानरैः सेवितः अगस्त्यसम्पूजितो राघवः पातु माम्। धेनुकारिष्टकानिष्टकृद्वेषिः केशिः कंसहृद्वंशिकावादकः पूतनाकोपकः सूरजाखेलनः बालगोपालकः पातु मां सर्वदा। विद्युद्योतवत् प्रस्फुरद्वाससं प्रावृढं भोदवत् प्रोल्लसद् विग्रहं वन्ययामालया शोभितोरस्थलं लोहिताङ्घ्रिद्वयं वारिजाक्षं भजे। कुञ्चितैः कुन्तलैभ्राजमानाननं रत्नमौलिं लसत्कुण्डलं गण्डयोः हारकेयूरकं कङ्कणप्रोज्ज्वलं किङ्किणीमञ्जुळं श्यामलं तं भजे। किङ्किणीमञ्जुळं श्यामलं तं भजे। ॐ शान्तिश्शान्तिश्शान्तिः। हरिः ॐ श्रीगुरुभ्यो नमः। हरिः ॐ।